एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा संसदः गतिरोधस्य अन्तस्य एमसीसी नामधेयायाः अमेरिकादेशीय सहायता परियोजनायाः सामयिक राजनीतिश्च विषयेषु नेकपा एमाले दलस्य अध्यक्षेण केपी शर्मा ओलिना, नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन च सह यो व्यमृशत्। बालवाटार वर्तिनी प्रधानमन्त्री निवासे सम्पन्ने तस्मिन् विमर्शने प्रधानमन्त्री देउवा अमेरिकादेशीय सहयोगा परियोजनायाः अग्रे वर्धनार्थं सहयोक्तुम् दलद्वयमेव अन्वरुणत्। विमर्शनस्य पश्चात् सञ्चारकर्मीभिः ब्रुवन्, नेकपा एमाले दलस्य महासचिवः शंकर पोखरेलः प्रधानमन्त्रिणः एमसीसी परियोजना सम्बद्धे प्रस्तावे एमाले दलाध्यक्षेण ओलिना सत्तापक्षस्य स्पष्ट धारणायाः प्रकाशनानन्तरमेव स्वस्य धारणा प्रकाशयिष्यते इत्युक्तमिति अज्ञापयत्। उपवेशे सत्तायां सहभागी दलस्य नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहालेन आगामिनो निर्वाचनस्य पश्चादेव एमसीसी परियोजनायाः पारितीकरणत्वेन सर्वेषां दलानां मध्ये सहमतिं सन्धार्य अग्रे वर्धितुं परामृष्टमिति महासचिवः पोखरेलः अवदत्। उपवेशे प्रधानमन्त्रिणा देवाभिधेन संसदः अवरोधं समाप्य सहयोक्तुं प्रमुख प्रतिपक्षी नेकपा एमाले दलम् अनुरुद्धम् परम् एमाले दलेन स्वस्य याचनानां सम्बोधनस्य अनन्तरमेव संसद चलितुम् शक्ष्यतीति उक्तमिति महासचिवः पोखरेलः अब्रवीत्। उपवेशे यथासमयम् स्थानीय स्तराणाम् निर्वाचनस्य सम्पादनस्य विषयेऽपि वार्ता विहितेति महासचिवः पोखरेलः अबोधयत्। संसदि विद्यमानम् अवरोधम् निवारयितुम् सभामुखः अग्निप्रसाद सापकोटा सर्वकारम् अनुरुणद्धि। सभामुखस्य कार्यकक्षे विधिन्याय संसदीय विषय मन्त्रिणा दिलेन्द्र प्रसाद बडु इत्यनेन सह यो विमृशन् सभामुखः सापकोटा संसदि चिराय विहितम् अवरोधनम् उचितम् न भवतीति चर्चयन् एतस्य निवारणाय गभीरतया सक्रियो भवितुम् मन्त्रिणम् बडु इत्यमुम् अन्वरुणत्। संघीय संसदः प्रतिनिधि सभायाः उपवेशः अस्यैव माघमासस्य षड्विंश दिवसाय आकारितो वर्तते। प्रमुख प्रतिपक्षिणा नेकपा एमाले दलेन संघीय संसदः उपवेश सततम् अवरोध्यमानो अस्ति। नेपाले ह्य अतिरिक्तः 8,74,700 जनाः कोरोना संक्रमणात् मुक्ताः सन्ति। कोरोना संक्रान्तानां जनानां संख्यायाः न्यूनीभवनेन सहैव सक्रिय संक्रान्तानां जनानां संख्या आराष्टम् 45,48,702 प्राप्यति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्य आराष्टम् 9,150,102 च निदर्शनानां परीक्षणे विहिते सति 1,67,102 च जनेषु कोरोना संक्रमणं पुष्टिभूतं वर्तते। कोरोना संक्रमणेन ह्य आराष्ट्रम् अतिरिक्तः 11 जनाः मृताः इति मन्त्रालयसौ सूचयति। कोरोना 19 ओमिक्रोन विषाणोः नवीन प्रजातेः नियन्त्रणाय पिधापितान् विद्यालयान् आगामिनः फाल्गुन मासस्य प्रथम दिवसतः सञ्चालयितुम् कोविड 19 संकट व्यवस्थापन केन्द्रेण सर्वकारः परामृष्टो वर्तते। केन्द्रस्य ह्य उपविष्टेन उपवेशेन आगामिनः फाल्गुन मासस्य प्रथम दिवसतः पिधापितान् विद्यालयान् सञ्चालयितुम् निर्णीतमिति केन्द्रस्य प्रवक्ता सुनिता नेपालः अज्ञापयत्। विद्यालयानां सञ्चालन समये 12 वर्षतः अधिक वयस समूहस्य बालबालिका कृते नियमित कक्षाः सञ्चालयितुम् 12 वर्षतो न्यून वय समूहस्य बालबालिकानां कक्षा चक्रीय प्रणाल्या सञ्चालयितुम् च परामृष्टमिति प्रवक्ता नेपालः अज्ञापयत। एवमेव काष्ठमण्डपो उपत्यकायाम् नैज साधनेषु ट्याक्सी यानेषु च क्रियान्विताम् सम विषमाङ्क प्रणालीम् कर्तुमपि गृह मन्त्रालयः परामृष्टो वर्तते। केन्द्रेण रात्रिकालिक व्यवसायानाम् अन्तर्गतः गायनशालाः, नृत्यशालाः, व्यायामशालाः, चलचित्रालयांश्च सञ्चालयितुम् च सर्वकारः परामृष्टः इति प्रवक्ता नेपालः अज्ञापयत्। राष्ट्रपतेः विद्यादेवी भण्डारी वसन्त पञ्चम्याः अवसरे हनुमद्वार प्रासादवर्ती नासलचोकस्थानम् प्राप्य ह्य वसन्तश्रवणम् व्यदधात्। सरस्वती पूजायाः दिने तत्र प्राप्य राष्ट्रप्रमुखेण वसन्तश्रवणस्य परम्परा वर्तते। एतस्याः एव परम्परायाः अनुसारेण नेपाली सेनायाः समूहेन सैन्याभिवादनम् विधाय पञ्चवाद्यध्वनिना स्वागतम् विहितम् आसीत्। वसन्तश्रवण समारोहे उपराष्ट्रपतेः नन्दबहादुर पुन, प्रधानमन्त्री शेरबहादुर देउवा, प्रधान न्यायाधीश चोलेन्द्र शमशेर जबरा, सभामुख अग्निप्रसाद सापकोटा, राष्ट्रिय सभाया अध्यक्ष गणेश प्रसाद तिमल उपस्थिताः आसन्। प्रसिद्धा भारतीय गायिका लता मंगेशकर द्वानवते वर्षाणाम वयसी ह्य उपचारस्य क्रमे दिवंगता वर्तते। गत जनवरी मासे कोरोना संक्रमणानन्तरम् असौ चिकित्सालयम् प्रवेशिता आसीत्। राष्ट्रपतिना विद्यादेवी भण्डारिणा ट्वीट सञ्जालस्य माध्यमेन प्रसिद्धाया गायिकाया मंगेशकर इत्यस्याः निधनं प्रति दुःखं व्यक्तं वर्तते। राष्ट्रपतिना भण्डारिणा मंगेशकर इत्यनया नेपाली गीत संगीत क्षेत्रे प्रापितम योगदानम संस्मृत्य शोक प्रकटितोस्ति। मंगेशकर इत्यस्याः जन्म 39-21 शततमे ख्रीष्टाब्दे सम्भूतम्। अनया 500 वर्षाणां वयसः एव स्वस्य पितुः सांगीतिकं प्रशिक्षणं प्रारब्धम् आसीत्। अनया भक्ति साहित्य संगीत क्षेत्रे सहस्रादपि अधिकेषु चलचित्रेषु च गीतानि सन्ति। अर्धशताब्द्याः दीर्घाया असाधारण सांगीतिक यात्रायाः क्रमे अमुष्या नेपालिना सह 37 भाषासु 25,000 अधिकानि गीतानि सन्ति। 1200 तमे ख्रीष्टाब्दे अमुष्यै भारतस्य सर्वोच्चम भारतरत्नम् इति सम्मानः प्रदत्तः आसीत्। प्रसिद्धा भारतीय गायिका मंगेशकरः अविवाहिता आसीत्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः योगदानस्य क्षमतायाः दक्षतायाश्च आधारेण कांग्रेस दलेन आसन निर्वाचनाय प्रत्याशिनः चेतुं बलं ददाति। ह्य पोखरायां नेपाली कांग्रेस दलस्य गण्डकी प्रदेश कार्यालयम् उद्घाटयन् नेता पौडेलः योगदानं क्षमतां दक्षतां च आधृत्य प्रत्याशिनः चेतुम् अन्वरुणत्। दलानां गठबन्धनस्य विषये कांग्रेस दलस्य स्पष्ट धारणायै बलं ददत् नेता पौडेलः दल संगठनस्य विद्यमानावस्थां दृष्टिगत विधाय अग्रेवर्धनस्य आवश्यकतां प्रादर्शयत। नेपाली कांग्रेस दलस्य पूर्व महामन्त्री तारानाथ राणा भाट एमसीसी प्रवृत्तिषु विषयेषु नेतृणां नैज विचाराणाम् अपेक्षया संस्थागत रूपेण निर्णयत्वेन अग्रे वर्धितुं बलम् अदात्। कार्यक्रमे नेपाली कांग्रेस दलस्य सहमहामन्त्री जीवन परियार दलेन स्वविधानानुसारेण सर्वेषु प्रदेशेषु निर्वाचनं विधाय नेतृत्वं प्रचितं वर्तते इति धारणां व्यक्तवान्। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः कथयति शिक्षा क्षेत्रस्य सुधाराय 55 सूत्रीयां कार्ययोजनां निर्माय क्रियान्विता वर्तते इति समाचारः।